शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तयेत् अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानां एकदन्तमुपास्महे सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विकटो विघ्नराजो गणाधिपः धूम्रकेतुर्गणाध्यक्षः पालचन्द्रो गजाननः वक्रतुण्डशूर्पकर्णो हेरम्बस्कन्दपूर्वजः षोडशैतानि नामानि यः पठे चुनुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्घमेतः संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते अभीप्सितार्थसिद्ध्यर्थं पूजतो यः सुरैरपि सर्वविघ्नर्जिते तस्मै श्री महागणाधिपतये नमः एकदन्तं महाकायं तप्तकाञ्चनसन्निभं लम्बोदरं विशालाक्षं वन्देहं गणनायकम् मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनं बालेन्दुशकलं मौलौ वन्देहं गणनायकम् चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितं कामरूपधरं देवं वन्देहं गणनायकम् गजवक्त्रसुरश्रेष्ठं कर्णचामरभूषितं पाशाङ्कुशधरं देवं वन्देहं गणनायकम् मूषिकोत्तममाहुर्य देवासुरमहाहवे योद्धुकायं महावीर्यं वन्देहं गणनायकम् यक्षकिन्नरगन्धर्व सिद्ध्यविद्यानरैः सह स्तूयमानं महाबाहुं वन्देहं गणनायकम् अम्बिका हृदयानन्दं मातृभिः परिवेष्टितः मत्तप्रियं मदोन्मत्तं वन्देहं गणनायकम् सर्वविघ्नहरं देवं सर्वविघ्नविमर्जितं सर्वसिद्धिप्रदादातं वन्देहं गणनायकम् गणेशाष्टकमिदं पुण्यं यः पठेत् सततं नरः सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत्।